कलश पूजा
कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणा स्मृताः कुक्षौ तु सागराः सर्वे सप्तद्वीप वसुन्धरा ऋग्वेदो अथ यजुर्वेदः सामवेदोऽप्यथर्वणः अङ्गैश्च सहिताः सर्वे कलशाम्भो समाश्रिताः आयान्तो देवपूजार्थम् दुरितक्षयकारकाः गङ्गे च यमुने चैव गोदावरी सरस्वती नर्मदे सिन्धुकावेरी तीर्थेऽस्मिन् सन्निधिम् कुरु।
अथ घण्टापूजा।
ॐ ह्रीं जगद्ध्वनिमन्त्रमातः घण्टादेवतायै नमः। हुं फट् स्वाहा। आसनाद्युपचारान् समर्पयामि, गन्धाद्युपचारान् समर्पयामि, पुष्पम् समर्पयामि, अमृतम् निवेदयामि। आगमार्थम् तु देवानाम्, गमनार्थम् तु रक्षसाम्। कुर्वे कण्डारवम् तत्र देवताक्वानलाञ्छनम्।
अथ पीठपूजा।
ॐ श्रीं फलाद्यै शक्त्यै नमः। ॐ श्रीं विमलायै शक्त्यै नमः। ॐ श्रीं कमलायै शक्त्यै नमः। ॐ श्रीं वनमालिकायै शक्त्यै नमः। ॐ श्रीं विभीषिकायै शक्त्यै नमः। ॐ श्रीं मालिकायै शक्त्यै नमः। ॐ श्रीं शाङ्करी शक्त्यै नमः। ॐ श्रीं वसुमालिकायै शक्त्यै नमः। श्रीमहालक्ष्मीपीठशक्त्यै नमः। आसनादि समस्तोपचारान् समर्पयामि।
अथ मातृगणपूजा।
ॐ गौर्यै नमः। ॐ पद्मायै नमः। ॐ शच्यै नमः। ॐ मेधायै नमः। ॐ सावित्र्यै नमः। ॐ विजयायै नमः। ॐ जयायै नमः। ॐ देवसेनायै नमः। ॐ स्वधायै नमः। ॐ स्वाहायै नमः। ॐ धृत्यै नमः। ॐ पुष्ट्यै नमः। ॐ मातृभ्यो नमः। ॐ दीष्ट्यै नमः। ॐ आत्मदेव्यै नमः। ॐ कुलदेवतायै नमः। षोडशमातृगणदेवताभ्यो नमः। आसनाद्युपचारान् समर्पयामि, गन्धाद्युपचारान् समर्पयामि, पुष्पम् समर्पयामि। षोडशमातृगणदेवताभ्यो नमः। कदलीफलम् निवेदयामि, ताम्बूलम् समर्पयामि, समस्त उपचारान् समर्पयामि।